नारदः परिपप्रच्छ विना यावनतो विधिम्। नारद उवाच, भगवन् ब्रूहि भक्तानां सर्वविघ्नापहारकम्, सर्वाभीष्टप्रदं देवं तत्किमस्ति मुदा वद इति। पृष्टस्तदोवाच विरिञ्चिस्तुष्टमानसः। ब्रह्म उवाच, वत्सते कथयिष्यामि सादरं शृणु नारद। गणेशाष्टोत्तरशतनामस्तोत्रमेकं शुभावहम्। सर्वविघ्नहरं सर्वसिद्धिदं धर्मवृद्धिदं पुरा गणेशशब्देन चन्द्रेणैतत्समीरितम्। चन्द्रमास्य ऋषिः प्रोक्तो गणेशो देवतापरम्। छन्दोऽनुष्टुप्तताभीष्टसिद्धये जप उच्यते। ॐ विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः, स्कन्दाग्रजो व्ययः पूतदक्षोऽध्यक्षो द्विजप्रियः, अग्निगर्भच्छिदिन्द्रश्रीप्रदो वाणीबलप्रदः, सर्वसिद्धिप्रदः शर्वतनयः शर्वरीप्रियः, शर्वप्रियस्तथा सर्वात्मकश्चापि प्रगीयते। अथासौ सृष्टिकर्ता च देवानीकार्चितः शिवः, शुद्धो बुद्धिप्रियः शान्तो ब्रह्मचारी गजाननः, द्वैमातुरो मुनिस्तुत्यो भक्तविघ्नविनाशकः, एकदन्तश्चतुर्बाहुस्तथायं सम्प्रभाष्यते, सशक्तिसंयुतश्चाथ चतुरः प्रोच्यते सदा, लम्बोदरः शूर्पकर्णो हेरम्बो ब्रह्मवित्तमः, कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः, पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः, अकल्मषस्वयं सिद्धार्चितपदो बीजपूरकः, अव्यक्तश्च गदी प्रोक्तो वरदः शाश्वतः कृती, विद्वत्प्रियो वीतभयश्चक्री चापीक्षुचापधृत्, अब्जोत्पलकलश्रीदश्रीहेतुस्तुतिहर्षितः, कुलाद्रिब्रह्मटीचन्द्रचूडाश्चाप्यमरेश्वरः, नागयज्ञोपवीती च श्रीकण्ठः प्रोच्यते सदा, रामार्चितपदः प्रोक्तो व्रती च स्थूलकण्ठकः, त्रयीकर्ता सामघोषप्रियः स पुरुषोत्तमः, स्थूलतुण्डोग्रगण्यश्च ग्रामणीर्गणपस्थिरः, वृद्धश्च सुभगः शूरो वागीशः सिद्धिदोऽपि च, दूर्वाबिल्वप्रियः कान्तः पापहारी कृतागमः, समाहितो वक्रतुण्डः श्रीपादः सौम्य एव च, भक्तकाङ्क्षित एष स्यात् त्वच्युतः केवलोऽपि च, सिद्धोतसच्चिदानन्दविग्रहो ज्ञान्यथोदितः, मायायुक्तश्च दान्तश्च ब्रह्मिष्ठो भयवर्जितः, प्रमत्तदैत्यभयदो व्यक्तमूर्तिरमूर्तकः, पार्वतीशङ्करोत्सङ्गखेलनोत्सवलालनः, समस्तजगदाधारो वरमूषकवाहनः, हृष्टस्ततः प्रसन्नात्मा सर्वसिद्धिप्रदायकः। ब्रह्म उवाच, इति श्रीमद्गणपतेरष्टोत्तरशतारभिदम्। त्रिसन्ध्यं यः पठेद्भक्त्या न लभेत् विघ्नसञ्चयम्, गणेशस्य प्रसादेन कामितानि लभेत् पुमान्। चन्द्रश्चानेन संस्तुत्या गणेशानुग्रहं परम्, प्रापैरदुर्लभं वत्स त्वयि स्नेहात् प्रभाषितम्। स्वस्ति श्रीगणपति अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्।